श्री गणेशाय नमः। श्री देवर्षिकृतं गजानन स्तोत्रं देवर्षय ऊचुः विदेहरूपं भवबन्धहारं सदा स्वनिष्ठं स्वसुखप्रदन्तम् अमेयसांख्येन च लक्ष्म्यमीशं गजाननं भक्तियुतं भजामः। मुनीन्द्रवन्द्यं विधिबोधहीनं सुबुद्धिदं बुद्धिधरं प्रशान्तं विकारहीनं सकलांगकं वै गजाननं भक्तियुतं भजामः। अमेयरूपं हृदि संस्थितं तं ब्रह्माहमेकं भ्रमनाशकारं अनादिमध्यान्तमपाररूपं गजाननं भक्तियुतं भजामः। जगत्प्रमाणं जगदीशमेव मगम्यमाद्यं जगदादिहीनम् अनात्मनां मोहप्रदं पुराणं गजाननं भक्तियुतं भजामः। न पृथ्वीरूपं न जलप्रकाशनं न तेजसंस्थं न समीरसंस्थं न खेगतं पञ्चविभूतिहीनं गजाननं भक्तियुतं भजामः। न विश्वगं तैजसगं न प्राज्ञं समष्टिव्यष्टिस्थमनन्तगं तं गुणैर्विहीनं परमार्थभूतं गजाननं भक्तियुतं भजामः। गुणेशगं नैव च बिन्दुसंस्थं न देहिनं बोधमयं न ढुण्ढी सुयोगहीनं प्रवदन्ति तत्स्थं गजाननं भक्तियुतं भजामः। अनागतं ग्रैवगतं गणेशं कथं तदाकारमयं वदामः। तथापि सर्वं प्रतिदेहसंस्थं गजाननं भक्तियुतं भजामः। यदि त्वया नाथ धृतं न किञ्चित् तदा कथं सर्वमिदं भजामि। अतो महात्मानमचिन्त्यमेवं गजाननं भक्तियुतं भजामः। सुसिद्धिदं भक्तजनस्य देवं सकामिकानामिह सौख्यदं तम् अकामिनाकां भवबन्धहारं गजाननं भक्तियुतं भजामः। सुरेन्द्रसेव्यं ह्यसुरैः सुसेव्यं समानभावेन विराजयन्तम् अनन्तबाहुं मूषकध्वजं तं गजाननं भक्तियुतं भजामः। सदा सुखानन्दमयं जले च समुद्रजे इक्षुरसे निवासं द्वन्द्वस्य यानेन च नाशरूपे गजाननं भक्तियुतं भजामः। चतुःपदार्थाविविधप्रकाशस्तदेव हस्तं सुचतुर्भुजं तम् अनाथनाथं च महोदरं वै गजाननं भक्तियुतं भजामः। महाकुमारूढमकालकालं विदेहयोगेन च लभ्यमानम् अमायिनं मायिकमोहदं तं गजाननं भक्तियुतं भजामः। रविस्वरूपं रविभासहीनं हरिस्वरूपं हरिबोधहीनं शिवस्वरूपं शिवभासनाशं गजाननं भक्तियुतं भजामः। महेश्वरीस्थं च सुशक्तिहीनं प्रभुं परेशं परवन्द्यमेवम् अचालकं चालक बीज रूपं गजाननं भक्तियुतं भजामः। शिवादिदेवैश्च खगैश्च वंद्यं नरैर्लता वृक्षः पशु प्रमुख्यैः चराचरैर्लोकविहीनमेवं गजाननं भक्तियुतं भजामः। मनोवचो हीनतया सुसंस्थं निवृत्तिमात्रं ह्यजमव्ययं तं तथापि देवपुरसंस्थितं तं गजाननं भक्तियुतं भजामः। वयं सुधन्या गणपस्तवेन तथैव मर्त्यार्चनतस्तथैव गणेशरूपाश्च कृतास्त्वया तं गजाननं भक्तियुतं भजामः। गजाख्यबीजं प्रवदन्ति वेदास्तदेव चिह्नेन च योगिनस्त्वाम् गच्छन्ति तेनैव गजाननं तं गजाननं भक्तियुतं भजामः। पुराणवेदाः शिवविष्णुकाद्यामराः शुकाद्या गणपस्तवे वै विकुण्ठिताः किं च वयं स्तवामो गजाननं भक्तियुतं भजामः। मुद्गल उवाच एवं स्तुत्वा गणेशानं नेमुः सर्वे पुनः पुनः तानुत्थाप्य वचो रम्यं गजानन उवाच। गजानन उवाच वरं ब्रूत महाभागा देवः सर्षिगणाः परम् स्तोत्रेण प्रीतिसंयुक्तो दास्यामि वाञ्छितं परम्। गजानन वचः श्रुत्वा हर्षयुक्ताः सुरर्षयः जगुस्तं भक्तिभावेन साश्रुनेत्राः प्रजापते देवर्षय ऊचुः। यदि गजानन स्वामिन प्रसन्नो वरदोऽसि मे तदा भक्तिं दृढां देहि लोभहीनां त्वदीयकाम्। लोभासुरस्य देवेश कृता शान्तिसुखप्रदा तया जगदिदं सर्वं वरयुक्तं कृतं त्वया। अधुना देवदेवेश कर्मयुक्ता द्विजातयः भविष्यन्ति धरायां वै वयं स्वस्थानगास्तथा। स्वस्वधर्मरताः सर्वे कृतास्त्वया गजानन अतः परं वरं ढुण्ढे याचमानः किमप्यहो। यदा ते स्मरणं नाथ करिष्यामो वयं प्रभो तदा सङ्कटहीनान् वै कुरु त्वं भो गजानन। एवमुक्त्वा प्रणेमुस्तं गजाननमनामयं तानुवाच च प्रीत्यात्मा भक्ताधीनः स्वभावतः। गजानन उवाच यद्यच्च प्रार्थितं देवा मुनेः सर्वमञ्जसा भविष्यति न सन्देहो मत्स्रमित्या सर्वदा हि वः। भवत्कृतं मदीयं वै स्तोत्रं सर्वत्र सिद्धिदं भविष्यति विशेषेण मम भक्तिप्रदायकम्। पुत्रपौत्रं प्रदं पूर्णं धनधान्यप्रवर्धनम् सर्वसम्पत्करं देवाः पठनाच्छ्रवणानृणां मारणोच्चाटनादीनि नश्यन्ति स्तोत्रपाठतः। परकृत्यं च विप्रेन्द्रा अशुभं नैव बाधते सङ्ग्रामे जयदं चैव यात्राकाले फलप्रदम्। शत्रुच्चाटनादिषु च प्रशस्तं तद्भविष्यति कारागृहगतस्यैव बन्धनाशकरं भवेत्। असाध्यं साधयेत् सर्वम् अनेनैव सुरर्षयः। एकविंशतिवारं वै चैकविंशद्दिनावधिं प्रयोगं यः करोत्येव सर्वसिद्धिभाक्स भवेत्। धर्मार्थ काम मोक्षाणां ब्रह्म भूतस्य दायकं भविष्यति न संदेहः स्तोत्रं मद्भक्तिवर्धनम्। एवमुक्त्वा गणाधीशः तत्रैवान्तर्धीयत। इति मुद्गल पुराणान्तर्गतं गजानन स्तोत्रं संपूर्णम्।
भगवान गजानन आप सबका सदा सर्वदा कल्याण करें। आप सभी भजनानंदियों को प्रेम प्रकाश दुबे का सादर जय सियाराम।